यस्तूयते श्रीतुगणै निपुणैरजस्रम् संपूज्यते क्रतुगतै प्रणतै क्रियाभिः तं सर्वकर्मफलदम् निजसेवकानां श्रीमद्विहारी चरणम्।